प्रातः स्मरामि भवभीतिहरं सुरेशं गंगाधरं वृषभवाहनमंबिकेशं खट्वांगशोलवरदाभयहस्तमीशं संसाररोगहरमौषधमद्वितीयं प्रातर्नमामि गिरीशं गिरिजार्धदेहं सर्गस्थिति प्रलयकारणमादिदेवं विश्वेश्वरं विचित विश्वमनोभिरामं संसाररोगहरमौषधमद्वितीयं प्रातर्भजामि शिवमेकमनन्तमाध्यम् वेदान्तवेद्यमनघं पुरुषं महान्तम् नामादिभेदरहितं षड्भावशून्यं संसाररोगहरमौषधमद्वितीयम् प्रातः समुत्थाय शिवं विचिन्त्य श्लोकत्रयं येननुदिनं पठन्ति ते दुःखजातं बहुजन्मसञ्चितं हित्वा पदं यान्ति तदेव शम्भो इति श्री शिवप्रातः स्मरणम्।